अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॐ पुण्डरीकाक्षः पुनातु ॐ पुण्डरीकाक्षः पुनातु ॐ पुण्डरीकाक्षः पुनातु कमलनयन भगवान् त्रिभुवन को पावन करे हरिः ॐ प्रणवस्य परब्रह्म ऋषिः परमात्मा देवता देवी गायत्री छन्दः भूरादि सप्तव्याहृतीनां क्रमेण विश्वामित्रजमदग्नी भरद्वाज गौतम अत्रि वसिष्ठ कश्यपादि ऋषयः अग्निवायु सूर्य बृहस्पति वरुणेन्द्र विश्वे देवा देवताः गायत्रिष्णिगनुष्ट बृहते पंक्ते त्रिष्टब् जगत्यश्चन्दांसि ॐ तत्सवितुरित्यस्य विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः ॐ आपो ज्योतिरसोमृतम् इत्यस्य प्रजापतिर्ऋषिः ब्रह्माग्निवायुसूर्या देवता यजुच्छन्दः सर्वेषां प्राणायामे विनियोगः